सर्वेषां पाणिनी व्याकरण वर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। महोदय, कृपया श्लोकान् स्मारयतु।
येनाक्षरसमान्नायं दिगम्य महेश्वरात् कृत्सन्न व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ नमः।
उत्तमं। केषु केषु गणेषु गुणः सम्भवति इति विषयः प्रवर्तमानः अस्ति खलु, सः विषयः एव अद्यापि अनुवर्तते। दश धातुगणाः सन्ति, प्रत्येकस्मिन् गणे विकरणप्रत्ययः कः, तस्य विकरणप्रत्ययस्य स्वभावः कः, गणविकरणप्रत्ययं निमित्तीकृत्य प्रत्येकस्मिन् गणे अङ्गकार्यम् इत्युक्ते गुणकार्यं भवति वा इति चिन्तनं कुर्वन्तः आस्म वयं। सर्वेषु गणेषु गणविकरणं प्रत्ययं निमित्तीकृत्य विधायकसूत्रद्वयेन गुणकार्यं भवति वा इत्युक्ते गुणकार्यस्य प्रसक्तिः अस्ति वा, प्राप्तिः अस्ति वा, सार्वधातुकार्थधातुकयोः पुगन्तलघुपदस्य च द्वयोः सूत्रयोः प्रसक्तिः कस्मिन् गणे अस्ति, प्राप्तिः अपि केषु केषु गणेषु अस्ति, धात्वङ्गे गुणकार्यस्य प्रसक्तिः कुत्र अस्ति, प्राप्तिः कुत्र अस्ति इति चिन्तनं। भवादिगणे शब्दविकरणप्रत्ययः अस्ति इति कारणतः शपं निमित्तीकृत्य इगन्तधातुषु इगुपधधातुषु गुणविधायकसूत्रद्वयेन गुणः सम्भवति। चुरादिगणे आदौ स्वार्थे णिचि विधीयते। सत्यापपाशवीणातूल इति एकं दीर्घं सूत्रमस्ति, तेन दीर्घसूत्रेण चुरादिगणे स्वार्धे णिच् प्रत्ययः विधीयते। णिच् प्रत्ययः तिङ् नास्ति, षित् नास्ति इत्युक्ते सार्वधातुकः नास्ति। णिच् प्रत्ययः आर्धधातुकप्रत्ययः। णिच् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः। णिच् प्रत्ययस्य योजनेन चुरादिगणे नूतनधातोः निर्माणं भवति। चुर् धातुं स्वीकुर्मः चेत् चोरि इति नूतनधातुः, चोरि नूतनधातुतः कर्त्रर्धकसार्वधातुक टिङ् प्रत्ययः परः अस्ति इति कारणतः चुरादिगणे कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्ययः नूतनधातुः टिङ् प्रत्ययोः मध्ये आयात्। चुरादिगणे शपं निमित्तीकृत्य इगन्तधातुषु इगुपधधातुषु गुणकार्यस्य प्राप्तिः अस्ति। किन्तु एकः अन्यः विषयः अपि अस्ति, चुरादिगणे अजन्तधातुः अस्ति चेत् इति निति प्रत्यये परे इत्युक्ते अचो इणिति इति एकं विशिष्टं सूत्रम् अस्ति, तत् सूत्रम् अजन्तधातूनां प्रसङ्गे एव उक्तमस्ति। चुरादिगणे अजन्तधातुषु सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य अपवादत्वेन अपवादबलेन अचो इणिति इति सूत्रेण णिति निति प्रत्यये परे वृद्धिकार्यं भवति इति अन्या वार्ता। चुरादिगणे शपविकरणप्रत्ययः अस्ति इति कारणतः गुणकार्यं सम्भवति। मुच् धातुः अस्ति चेत् तत्र मोचि इति नूतनधातुः, मोचयति इति रूपं सिद्ध्यति। तिज् धातोः रूपम् अस्ति चेत् निच् प्रत्ययस्य योजनानन्तरं तेजि भवति, पश्चात् त्यजयति इति रूपं भवति। इत्युक्ते भवादिगणे शप् अस्ति अतः गुणकार्यं, चुरादिगणे अपि शप् अस्ति इत्यतः तत्रापि शपं निमित्तीकृत्य विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति। अष्टमः गणः अस्ति तनादिगणः। तनादिगणे ऊ विकरणप्रत्ययः अस्ति, ऊ विकरणप्रत्ययः तिङ् नास्ति, षित् नास्ति, अतः सार्वधातुकः नास्ति। आर्धधातुकं शेषः इति सूत्रेण ऊ विकरणप्रत्ययः आर्धधातुकसंज्ञकः। ऊ विकरणप्रत्ययं निमित्तीकृत्य तनादिगणे इत्युक्ते अष्टमगणे इगन्तधातुषु इगुपधधातुषु गुणविधायकसूत्राभ्यां गुणकार्यं सम्भवति। तत्र ऊ इति आर्धधातुकप्रत्ययः इति उक्तवती खलु, आर्धधातुकप्रत्ययः अस्ति इति कारणतः तत्र पित्वम् अपित्वम् इति चिन्तनम् अनावश्यकम्। सार्वधातुकम् अपित् अपि च क्निति च द्वयोः सूत्रयोः प्रसक्तिः नास्ति तत्र। किमर्थं चेत् ऊ प्रत्ययः आर्धधातुकप्रत्ययः, पित्वम् अपित्वम् इति चिन्तनं नास्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च सूत्राभ्यां तनादिगणे ऊ प्रत्यये परे गुणकार्यं सम्भवति. उप्रत्यये कित्वं नास्ति, गित्वं नास्ति, नित्वमपि नास्ति. उप्रत्यये कित्वं, गित्वं, नित्वं नास्ति इति कारणतः तत्र गुणकार्यं न बाधितम्, इत्युक्ते गुणकार्यं भवति एव इति विषयः. क्रू धातोः प्रसङ्गे चिन्तयामश्चेत् क्रू इति धातुः ईगन्तधातुः, इक् प्रत्याहारस्थवर्णः तस्य अन्ते अस्ति खलु. क्रू धातोः परं तनादिगणे ऊ विकरणप्रत्ययः आयाति. तनादिकृण्भ्यः उः सूत्रेण ऊ प्रत्ययः आयाति. ऊ इति विकरणप्रत्ययं निमित्तीकृत्य तनादिगणे क्रू धातोः प्रसङ्गे तत्र आर्धधातुकप्रत्ययः परः अस्ति. तनादिगणे ऊ इति आर्धधातुकप्रत्ययः अस्ति इति कारणतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण क्रू धातोः प्रसङ्गे आदौ गुणकार्यं भूत्वा कर्रूपं सिद्ध्यति. कर्योगः ऊ योगः ति रूपम् अस्ति. करु इति भवति, तिङ् प्रत्ययं निमित्तीकृत्य करु अङ्गं भवति. अन्ते उकारः अस्ति इति कारणतः तदपि ईगन्तमङ्गमेव इति कृत्वा तत्र पुनः गुणकार्यं भवति. ऊ प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, तिङ् प्रत्ययं निमित्तीकृत्य अपि गुणकार्यं भवति क्रू धातोः प्रसङ्गे. तदर्थमेव तस्य रूपं करोति. तन् धातोः प्रसङ्गे चिन्तयामश्चेत् तन् धातुः ऊ प्रत्ययं निमित्तीकृत्य गुणकार्यं नास्ति. किमर्थं चेत् तन् ईगन्तधातुः अपि नास्ति, इगुपधधातुः अपि नास्ति इति कारणतः ऊ इति विकरणप्रत्ययं निमित्तीकृत्य तत्र गुणकार्यं नास्ति. किन्तु तिङ् प्रत्ययं निमित्तीकृत्य तत्र गुणकार्यम् अस्ति. तन् योगः ऊ योगः ति इति स्थितिः अस्ति. तत्र किं भवति, तनु इति रूपं सिद्ध्यति. तनु इति ईगन्तम् अङ्गम् अस्ति इति कारणतः तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं सम्भवति इति कृत्वा तनोति इति रूपं सिद्ध्यति. ऊ प्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययस्य प्रसङ्गे किञ्चित् ज्ञातव्यः अंशः कः इत्युक्ते, तिङ् प्रत्ययान् विहाय, षित् प्रत्ययान् विहाय, धातुभ्यः विहिताः सर्वे प्रत्ययाः, पुनः वदामि, तिङ् प्रत्ययान् विहाय, षित् प्रत्ययान् विहाय, धातुभ्यः विहिताः अन्ये सर्वे प्रत्ययाः आर्धधातुकाः. इत्युक्ते येषां येषां प्रत्ययानां सार्वधातुकसंज्ञा नास्ति ते सर्वे अन्ये प्रत्ययाः, शेषप्रत्ययाः. तदर्थमेव सूत्रे किम् उक्तमस्ति, आर्धधातुकं शेषः. शेषः इत्युक्ते शेषप्रत्ययाः सर्वे आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकाः भवन्ति. इत्युक्ते अन्ये शेषप्रत्ययाः, ये तिङ्गः न सन्ति, ये शितः न सन्ति, ते सर्वे आर्धधातुकाः. किन्तु तत्र स्मर्तव्यः अंशः कः, धातुभ्यः विहिताः शेषप्रत्ययाः इति स्मर्तव्यः अंशः. धातुभ्यः विहिताः शेषप्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति इति उक्तम् अस्ति. किमर्थं चेत् तत्र आर्धधातुकं शेषः इति सूत्रं धात्वधिकारे अस्ति इति कृत्वा धातुभ्यः विहिताः प्रत्ययाः ये तिङ्गः न सन्ति, ये शितः न सन्ति, ते सर्वे आर्धधातुकसंज्ञकाः भवन्ति. एतावत्पर्यन्तं त्रयाणां गणानां प्रसङ्गे अहं किञ्चित् उक्तवती. इदानीम् अदादिगणः जुहोत्यादिगणः तयोः प्रसङ्गे अन्ते वक्ष्यामि. किमर्थं चेत् तत्र किञ्चित् वैशिष्ट्यम् अस्ति, उभयत्र द्वयोः गणयोः किञ्चित् वैशिष्ट्यम् अस्ति इति कारणतः अन्ते वक्तुम् इच्छामि. चतुर्थः गणः दिवादिगणः अस्ति. दिवादिगणे शन् इति विकरणप्रत्ययः अस्ति. षित्वात् शन् प्रत्ययः सार्वधातुकसंज्ञकः, किन्तु अपित्वात् शन् प्रत्यये नित्वम् अध्यारोप्यते. तदर्थं सार्वधातुकम् अपित् क्निति च द्वाभ्यां सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः नास्ति. शन् इति प्रत्यये साक्षात् नित्वं नास्ति, किन्तु सः प्रत्ययः नित् इव कार्यं करोति, नित् इव आचरति, नित् इव प्रवर्तते सः प्रत्ययः. तदर्थमेव शन् प्रत्ययस्य अपित्वकारणात् क्निति च इति बाधकसूत्रेण शन् इति विकरणप्रत्यये परे गुणकार्यं बाधितं भवति इति दिवादिगणस्य विषयः. दिवादिगणे नश् धातुः अस्ति. नश् धातुः तु यूपधधातुः नास्ति, ईगन्तधातुः नास्ति, विकरणप्रत्ययनिमित्तीकृत्य गुणकार्यचिन्तनं नास्ति. नश् योगः श्यन् योगः ति इति कथनेन श्यन् इत्यस्मात् य आगतः, नश् योगः या योगः ति नश्यति भवति, तत्र गुणः न सम्भवति. किन्तु दिव् धातुं स्वीकुर्मः चेत् दिव् धातुः इगुपधधातुः, उपधायाम् इकारः अस्ति, शन् विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति वा इति चिन्तनीयं खलु. किन्तु तत्र न भवति. दिव् इति इगुपधधातुः अस्ति चेदपि गुणकार्यम् अभूत्वा शन् प्रत्ययस्य अपित्वकारणात् गुणकार्यम् अभूत्वा केवलं दीव्यति इति रूपं सिद्ध्यति. तत्र दिव् देव् न भवति, किन्तु तत्र दीर्घत्वं विशिष्टसूत्रेण भवति इति अन्या वार्ता. पञ्चमः गणः स्वादिगणः. स्वादिगणे स्वादिभ्यः श्नुः सूत्रेण श्नुविकरणप्रत्ययः आयाति. श्नुप्रत्ययः अपि शित्वात् सार्वधातुकप्रत्ययः एव. सार्वधातुकप्रत्ययः अस्ति इति कारणतः यत्र यत्र ईगन्तधातुः ईगुपदधातुः अस्ति तत्र गुणविधायकसूत्रयोः प्रसक्तिः अस्ति, किन्तु अपित्वकारणात् तत्र गुणकार्यं बाधितं भवति. श्नुप्रत्ययस्य अपित्वकारणात् सार्वधातुकम् अपित् इति सूत्रेण निद्वत् भूत्वा क्नीति च सूत्रेण गुणनिषेधः भवति. धातौ आनुकूल्यमस्ति चेत्, इत्युक्ते इगुपधधातुः इगन्तधातुः अस्ति चेत् गुणविधायकसूत्रयोः प्रसक्तिः अस्ति, किन्तु श्नुप्रत्ययस्य अपित्वकारणात् गुणकार्यः नास्ति. गते सप्ताहे शक्नोति इति रूपं वयं दृष्टवन्तः खलु. शक् धातुः अस्ति, श्नुप्रत्ययः अस्ति. श्नुप्रत्ययं निमित्तीकृत्य गुणकार्यं नास्ति, किन्तु शक्नोति इत्यस्मिन् पदे तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं सम्भवति. शक्नु इति अङ्गं तिङ् प्रत्ययस्य कृते उकारस्य गुणकार्यं भूत्वा तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं सम्भवति इति कृत्वा शक्नोति. षष्ठः गणः तुदादिगणः अस्ति. तुदादिगणे शाविकरणप्रत्ययः अस्ति. शाविकरणप्रत्ययस्य अपित्वकारणात् तत्रापि गुणनिषेधः भवति. गुणविधायकसूत्रयोः प्रसक्तिः अस्ति, किन्तु प्राप्तिः नास्ति. शाप्रत्ययः शित्वात् सार्वधातुकः, किन्तु अपित्वकारणात् गुणनिषेधः. तुद्योगः शायुगः ति. शा इत्यस्मात् आगतः, विकरणप्रत्ययस्य अवशिष्टभागः आगतः. तुद्योगः आयोगः ति, तुदति न तु तोदति. तोदति इति अनिष्टं रूपम् अस्ति. सप्तमः गणः रुधादिगणः. रुधादिगणे श्नम् इति विकरणप्रत्ययः आयाति, किन्तु कुत्र आयाति? धातोः मध्ये आगत्य उपविशति. इत्युक्ते श्नम् इत्यस्य अनुबन्धलोपानन्तरं, शकारमकारयोः अनुबन्धलोपानन्तरं न अवशिष्यते. सः न धातोः मध्ये आगत्य उपविशति. तत्र श्नम् इति विकरणप्रत्ययस्य मित्वकारणात्, श्नम् इत्यस्मिन् मकारः इति संज्ञकः, अतः मित्वकारणात् सः मेदचोन्त्यात् परः इति सूत्रेण धातोः मध्ये आगत्य उपविशति. अपि च श्नम् विकरणप्रत्ययः रुधादिगणे धातोः भागः भवति. अपि च श्नम् षित्वकारणात् पुनः सः प्रत्ययः अपि सार्वधातुकसंज्ञकः एव. तिङ्क्षित् सार्वधातुकं सूत्रेण षित्वात् सार्वधातुकः भवति, किन्तु अपित्वकारणात् अत्र गुणकार्यं नास्ति. विकरणप्रत्ययः यदा कदापि धातोः परमस्ति चेदेव गुणकार्यस्य चिन्तनं भवति, किन्तु सः विकरणप्रत्ययः धातोः भागः भूत्वा तत्र तिष्ठति चेत् कथं गुणकार्यस्य चिन्तनं भवति? साधारणतया विकरणप्रत्ययः धातोः परमस्ति चेत् विकरणप्रत्ययं निमित्तीकृत्य धात्वङ्गीयगुणकार्यं भवति वा इति चिन्तयितुं शक्नुमः, किन्तु रुधादिगणे श्नम् विकरणप्रत्ययः धातोः भागः भवति इति कृत्वा विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं न सम्भवति. उदाहरणार्थम् एकः धातुः अस्ति, शिश् इति धातुः अस्ति, इगुपधधातुः. सः धातुः इत्युक्ते उपधायां विकारः अस्ति, शिश् तत्र मूर्धन्यषकारः अन्ते अस्ति. शिश् धातौ, शिश् धातोः रूपं शिनष्टि. कथम् आयाति इत्युक्ते श्नम् इति विकरणप्रत्ययात् न इति धातोः मध्ये आगत्य उपविशति इति कारणतः शिनष्टि इति रूपं सिद्ध्यति. वयं सर्वे जानीमः खलु विशिष्यते, विशिष्टः इत्यादीनि पदानि, तानि पदानि शिश् धातोः रूपाणि एव. अपि च हलन्तधातवः बहवः सन्ति तस्मिन् गणे. किं वक्तुमिच्छामि? रुधादिगणे इगन्तधातवः न सन्ति इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः न भवति एव. अपि च पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः भवति वा इति चिन्तयामश्चेत् धातोः मध्ये सः नकारः आगत्य उपविशति खलु, तदर्थं तत्र पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अपि न सम्भवति एव. एतावता रुधादिगणे श्नम् विकरणप्रत्ययं निमित्तीकृत्य द्वयोः गुणविधायकसूत्रयोः प्राप्तिः अपि नास्ति. नवमः गणः अस्ति क्रयादिगणः. क्रयादिगणे श्ना इति विकरणप्रत्ययः अस्ति. शित्वात् सार्वधातुकः, अपित्वकारणात् नित्वत् भूत्वा गुणनिषेधः भवति. क्रीधातुः क्रयादिगणे अस्ति. क्रीधातुः ईगन्तधातुः, धातोः अन्ते दीर्घ ईकारः अस्ति क्री इति कथनेन. सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थं चेत् श्नाविकरणप्रत्ययस्य शित्वकारणात् श्ना इति प्रत्ययः सार्वधातुकसंज्ञकः शित्वात्. तदर्थं तादृश सार्वधातुकविकरणप्रत्ययः क्री इति धातोः परमस्ति इति कारणतः सार्वधातुकार्थधातुकयोः इति गुणविधायकसूत्रस्य प्रसक्तिः तत्र अस्ति. किन्तु श्ना इत्यस्य अपित्वकारणात् गुणकार्यं न सम्भवति इति कृत्वा क्री योगः ना योगः ति केवलं क्रीणाति इति रूपमेव सिद्ध्यति. किन्तु णत्वं मूर्धन्यणकारः रेफकारणात् आयाति. क्री धातुः ईगन्तधातुः. किन्तु विष् इति एकः धातुः अस्ति, अन्ते मूर्धन्य षकारः अस्ति, विष् धातुः. विष् धातोः रूपं विष्णाति क्रयादिगणीयधातुः एव. तत्र विष् धातुः इगुपधधातुः, उपधायाम् इकारः अस्ति, इगुपधधातुः अस्ति इति कारणतः पुगन्तलघुपधस्य च इति सूत्रस्य प्रसक्तिः भवति. तत्र उपधायाम् इकारः अस्ति खलु, तदर्थं. किन्तु श्नाविकरणप्रत्ययस्य अपित्वकारणात् पुगन्तलघुपधस्य च सूत्रेण कार्यं न भवति, गुणकार्यं न सम्भवति. इत्युक्ते क्री धातोः प्रसङ्गे अपि च विष् धातोः प्रसङ्गे द्वयोः धातोः प्रसङ्गे गुणनिषेधः एव सम्भवति. किमर्थं चेत् श्नाविकरणप्रत्ययस्य अपित्वकारणात्, पित्वस्य अभावात्. एतावता निष्कर्षः कः, सारांशः कः इत्युक्ते विकरणप्रत्ययेषु ऊ प्रत्ययः एकः एव आर्धधातुकसंज्ञकः, अन्ये प्रत्ययाः शित्वकारणात् सार्वधातुकसंज्ञकाः. सः एकः विषयः. केवलं त्रिषु गणेषु एव, त्रिषु गणेषु गणत्रयं किं, भुवादिगणे, चुरादिगणे, तनादिगणे, एतेषु त्रिषु गणेषु एव गणविकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. भुवादिगणे शप्, चुरादिगणे शप्, तनादिगणे आर्धधातुकप्रत्ययः ऊ अस्ति कारणतः गणविकरणप्रत्ययं निमित्तीकृत्य एतेषु त्रिषु गणेषु गुणकार्यं सम्भवति इति सारांशः. अन्येषु गणेषु दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्रियादिगणे, पञ्चसु गणेषु अपित्वकारणात् विकरणप्रत्ययं निमित्तीकृत्य गुणनिषेधः भवति. अदादिगणस्य प्रसङ्गे, जुहोत्यादिगणस्य प्रसङ्गे किञ्चित् ज्ञातव्यमेव. अद्य यदा वयं करपत्रं पठामः तदा वक्ष्यामि. स्थूलरीत्या ज्ञातव्यं चेत् विकरणप्रत्ययः नास्ति एव तयोः गणयोः इति मन्तव्यं. तयोः द्वयोः गणयोः विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति. द्वयोः इत्युक्ते अदादिगणे, जुहोत्यादिगणे केवलं धातुः एव अङ्गम्. शप् इत्यस्य सम्पूर्णतया लुक् भवति, शप् प्रत्ययस्य लोपः भवति. यदा लोपः भवति तदा प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र प्रत्ययलक्षणं तिष्ठति वा, प्रत्ययाश्रितं कार्यं भवति वा इति चिन्तनीयं. साधारणतया भवति, यद्यपि प्रत्ययस्य लोपः भवति तथापि प्रत्ययाश्रितं कार्यं, प्रत्ययं निमित्तीकृत्य यत् कार्यं भवनीयं तत् कार्यं भवेदेव. किन्तु अत्र तथा न भवति. अदादिगणे तथा न भवति, जुहोत्यादिगणे अपि तथा न भवति. इत्युक्ते प्रत्ययाश्रितं कार्यं न भवति. किमर्थम् इत्युक्ते तयोः गणयोः किञ्चित् वैशिष्ट्यम् अस्ति. अदादिगणे शपः लुक् भवति इति पठितम् अस्माभिः. लुक् इत्युक्ते एकविधलोपः. न लुमताङ्गस्य इति सूत्रेण शप्रत्ययाश्रितं कार्यं यत् कार्यमस्ति तत् कार्यम् अङ्गकार्यं न भवति अदादिगणे. शप्रत्ययस्य लोपानन्तरं शपं निमित्तीकृत्य यद् अङ्गकार्यमस्ति तद् अङ्गकार्यं न भवति. अदादिगणे धातुः एव अङ्गमस्ति. इतोपि वक्तव्यं चेत् अदादिगणे शपः लुक् भवति, जुहोत्यादिगणे शपः श्लू भवति. इत्युक्ते लुक्, श्लू, लुप् एभिः शब्दैः यदा प्रत्ययस्य लोपः भवति तदा प्रत्ययाश्रितं कार्यं न सम्भवति. तादृशी स्थितिः अदादिगणे अस्ति, जुहोत्यादिगणे अपि अस्ति. न लुमताङ्गस्य इति सूत्रस्य प्रसङ्गे इतोपि किञ्चित् ज्ञातव्यं. तत्र केचन अंशाः सन्ति. लुमता इत्युक्ते किम्, एतत् सर्वं वक्तव्यं. वयं सर्वे जानीमः खलु, यस्य यस्मिन् बुद्धिः अस्ति सः बुद्धिमान्, अस्य अथवा अस्मिन् गुणाः सन्ति सः गुणवान्, गुणवान् बुद्धिमान् वीर्यवान् इत्यादीनि पदानि वयं श्रुतवन्तः खलु. एते शब्दाः मतुप्रत्ययान्तशब्दाः. इत्युक्ते मतुप् इति प्रत्ययस्य नाम अस्ति. तत्र पकारः हलन्तिमित्यनेन अपगच्छति, उकारः उपदेशजिम्नास्टिक् इत् इत्यनेन इत्संज्ञकः भूत्वा अपगच्छति, मत् अवशिष्यते, मत् प्रत्ययः तद्धितप्रत्ययः इत्युक्ते प्रातिपदिकात् विधीयते सः प्रत्ययः. बुद्धि इति प्रातिपदिकमस्ति, बुद्धि इति प्रातिपदिकात् मत् प्रत्ययसंयोजनेन बुद्धिमत् इति तकारान्तप्रातिपदिकं सिद्ध्यति, बुद्धिमान् प्रथमान्तरूपं. तथा एव नालुमताङ्गस्य इत्यस्मिन् सूत्रे लुमता इति पदमस्ति, तत्पदं तृतीयविभक्त्यन्तं पदम् अस्ति, प्रथमान्तं पदं लुमान्, तत्र प्रातिपदिकं लुमत् तकारान्तप्रातिपदिकमस्ति. लुमत् इत्युक्ते लु अस्मिन् अस्ति इति वक्तव्यमस्ति. न केवलं समासानां कृते, तद्धितान्तपदानां कृते अपि विग्रहवाक्यं वक्तव्यं भवति. तत्र मतु प्रत्ययान्तशब्देषु विग्रहवाक्यं कथं वक्तव्यं, लु अस्य अस्मिन् वा वर्तते इति अदादिगणे लु इति शब्देन प्रत्ययस्य शप्रत्ययस्य लोपः भवति इति कृत्वा प्रत्ययलोप्य प्रत्ययलक्षणम् इत्यनेन प्रत्ययाश्रितं कार्यं न भवति. नालुमताङ्गस्य इति सूत्रेण प्रत्ययाश्रितं कार्यं निषिध्यते. अदादिगणस्य प्रसङ्गे इतोपि किञ्चित् ज्ञातव्यमेव. जुहोत्यादिगणस्य प्रसङ्गे अपि किञ्चित् तादृशं कार्यमेव भवति. श्लु इत्यनेन शपः लोपः भवति. तत्र लुक् श्लु अनयोः मध्ये भेदः अस्ति, किञ्चित् साम्यमस्ति, कश्चित् भेदः अपि अस्ति. साम्यं किम् इत्युक्ते द्वयोः गणयोः, अदादिगणे जुहोत्यादिगणे द्वयोः गणयोः नालुमताङ्गस्य इत्यस्य प्रसक्तिः अस्ति. लु इति शब्देन एव शपः लोपः भवति. किन्तु जुहोत्यादिगणे इतोपि अन्यानि कार्याणि सन्ति. तत् कार्यं किम् इत्युक्ते शपः श्लु भवति इति कारणतः जुहोत्यादिगणे द्वित्वकार्यं भवति. श्लौ इति सूत्रेण जुहोत्यादिगणे द्वित्वकार्यं भवति, अपि च अन्यानि कार्याणि अपि सन्ति इति स्थूलरीत्या अस्माभिः ज्ञातव्यम्. अद्यापि विकरणप्रत्ययं निमित्तीकृत्य भिन्नगणेषु कीदृशानि कार्याणि भवन्ति इति चिन्तनमेव अनुवर्तते. इदानीं भवन्तः सर्वे करपत्रं पुरतः स्थापयन्तु. गते सप्ताहे पञ्चमबिन्दोः पर्यन्तं समापितवन्तः. इत्युक्ते पञ्चमबिन्दोः पर्यन्तं यद् लिखितमस्ति तस्य पुनस्मरणं कृतवन्तः वयं. षष्ठः बिन्दुतः आरभ्य पठनीयम्. इदानीं करपत्रम् उद्घाटयन्तु, पश्यन्तु. शित्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत् इत्यस्मात् आरभ्य पठनीयम्. इदानीं दर्शनभगिनी भवती पठतु.
शित्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत् सार्वधातुक अर्धधातुकयोः पुगन्तलघूपधस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्. किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः ङित्वत् तथा च ङिति च इति गुणबाधक सूत्रेण यः ङित् अस्ति अथवा ङित् इव अस्ति तस्य गुणकार्यं बाधितम्. अतः येषु सार्वधातुकप्रत्ययेषु इत्संज्ञकपकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति. श्यन् श्नु शश्नम् श्ना इति प्रत्ययाः शितः तु सन्ति, अतः शित्वात् गुणकार्यस्य प्रसक्तैरस्ति, परन्तु पित्वस्य अभावात् न गुणः. तर्हि दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्वात् बाधितम्. तर्हि द्वौ अथवा द्वौ कारणेन गुणकार्यं भवति इति वयं जानीमः. तत्र सार्वधातुकसंज्ञः प्रत्ययः अस्ति चेत् शित्वात् च प्रत्यये इति अस्ति, अपि च तस्य इत्संज्ञा भवति चेत् षित् भवति. सार्वधातुक अर्धधातुकयोः अपि च उगन्तलघुपदस्य च इति सूत्रेण गुणकार्य भवति. यदा अपि च उपाधाय उपधास्वरः अस्ति चेत् तर्हि गुणकार्यं भवति इति वयं जानीमः। कि गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् अस्ति सः नित्वत्। तर्हि तत्र प्रत्ययः अपित् अस्ति चेत् तर्हि सार्वधातुकम् अपित् इत्यनेन गुणकार्यं न भवति, निषेधः भवति। तत् नित्वत् अहं न प्रतिपादितुं शक्नोमि भगिनि, नित्वत् इति अहं न एक्स्प्लेन् कर्तुं न शक्नोमि।
पूर्वं वयं किं दृष्टवन्तः, सार्वधातुकम् अपित् इति सूत्रस्य अनुवृत्तिः का इति पश्यामश्चेत् सार्वधातुकम् अपित् नित् इति अस्ति। इत्युक्ते यः प्रत्ययः सार्वधातुकः अस्ति, अपित् अस्ति, तस्मिन् नित्वम् अध्यारोप्यते। नित्वत् इत्युक्ते नित्वत् इत्युक्ते नित् इव प्रवर्तते, नित् इव आचरति। कः प्रत्ययः नित् इव आचरति? यः प्रत्ययः सार्वधातुकः, अपित् प्रत्ययः। उपरि प्रत्ययाः दत्ताः खलु, श्यन्नु, श्नु, शाश्नं, श्ना, एते पञ्चप्रत्ययाः। इत्युक्ते शप् प्रत्ययं विहाय, शप् प्रत्ययं त्यक्त्वा, श्यन्, श्नु, शाश्नं, श्ना, एते पञ्चप्रत्ययाः। षित् प्रत्ययाः इत्युक्ते सार्वधातुकसंज्ञकाः, किन्तु अपित्वकारणात् तेषु प्रत्ययेषु नित्वम् अध्यारोप्यते इति कृत्वा ते निद्वत् आचरन्ति। इदं सूत्रम् अतिदेशसूत्रम् इत्युक्ते यस्य स्वभावः तादृशः नास्ति, नूतनस्वभावः तस्मिन् प्रत्यये अध्यारोप्यते। श्यन् प्रत्ययः अथवा श्नु, शाश्नं, ये पञ्चप्रत्ययाः नित्वत् आचरन्ति। इत्युक्ते एतेषु प्रत्ययेषु साक्षात् नित्वं नास्ति। नित् इति कथनेन ञकारः इति संज्ञकः इति अर्थः। तादृशञकारः इति संज्ञकः एतेषु प्रत्ययेषु नास्ति। इत्युक्ते साक्षात् श्यन् प्रत्यये, श्नु प्रत्यये, शा प्रत्यये, एतेषु साक्षात् नित्वं नास्ति चेदपि नित्वम् अध्यारोप्यते इति कारणतः, अतिदेशसूत्रमस्ति इति कारणतः नित्वम् अध्यारोप्यते इति कृत्वा गुणबाधकसूत्रेण गुणकार्यं बाधितम्। अत्र गुणबाधकसूत्रं तु क्निति च। अग्रे वदतु।
अतः येषु सार्वधातुकप्रत्ययेषु उत्सञ्ज्ञकपकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति। तदेव तत् अस्ति चेत् भवति गुणकार्यम्, अपित् अस्ति चेत् न भवति इति अत्र लिखितमस्ति। इति प्रत्ययाः चित्तकात्तु सन्ति, अतः चित्वा गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु चित्वस्य अभावात् न गुणः। तर्हि एतेषु प्रत्ययेषु सन् स्नु सन् तत्र स अस्ति, अपि च चित् सम्यकः सम्यकः अस्ति, परन्तु अपित् अस्ति, तत् कारणेन तत्र गुणकार्यं न भवति। तर्हि द्विवादिगणे, स्वादिगणे, सुदादिगणे, ऋधादिगणे, स्वादिगणस्य गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अपित् अस्ति इति कारणेन न भवति।
एतत् सर्वं ज्ञातमेव साधु भगिनी, तदेव उपरि लिखितमस्ति, तदेव दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्रयादिगणे गुणकार्यस्य प्रसक्तिः अस्ति षित्वात्। इत्युक्ते तेषु गणेषु सार्वधातुकप्रत्ययः षित् प्रत्ययः परः अस्ति इति कारणतः तत्र गुणकार्यस्य प्रसक्तिः अस्ति, किन्तु अपित्वमस्ति इति कारणतः तत्र गुणकार्यं बाधितं भवति। अग्रे गोमती भगिनी सारांशं वदतु।
सारांशः एवं, सार्वधातुकसंज्ञकः संज्ञकविकरणप्रत्ययः, सार्वधातुकसंज्ञकविकरणप्रत्ययः प्रत्ययं निमित्तीकृत्य स्वादिगणे, चुरादिगणे च एव गुणकार्यं सम्भवति इति दत्तम्। स्वादिगणे शप् विकरणप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः तिञ्चित् सार्वधातुकम् इति सूत्रेण तत् सार्वधातुकप्रत्ययः अस्ति, अपि पित् अस्ति, अतः तत्र गुणकार्यं सम्भवति। चुरादिगणे अपि शप् आयाति, अतः तत्र अपि गुणकार्यं सम्भवति। अतः सार्वधातुकसंज्ञकः षट्ञकविकरणप्रत्ययं पित् अपि निमित्तीकृत्य भादिगणे चिरादिगणे एव गुणकार्यं सम्भवति. अन्यगणेषु अन्यकार्यम् अस्ति. अन्यगणेषु कार्यम् अन्यत्र अन्यः अस्ति.
उत्तमम्. एकमेकम् उदाहरणं स्वीकृत्य विवृणोतु.
पादिगणे नयति, तत्र नि इति स्वीकरोमि. नियोगः ति, नियोगः ति मध्ये शप् आयाति. पादिगणे शप् विकरणप्रत्ययः अस्ति. नि तत् इगन्त धातुः अस्ति. ईकारः अस्ति अन्ते. नि अनन्तरं शप् अस्ति. शप् लशक्वत् अधिते इति सूत्रेण शकारस्य इत्संज्ञः भवति. पकारः हलन्द्यम् इत्वज्ञकः, तस्य लोपः इति शकारस्य पकारस्य लोपः भूत्वा केवलम् अ एव अवशिष्यते. अनन्तरं तिप् अस्ति, तत्र पकारः हलन्द्यम् इति सूत्रेण तस्य अपि लोपः भूत्वा ति अवशिष्यते. नि इगन्तमस्ति. ईकारस्य गुणः ए अस्ति, तो ने भवति. ने योगः अ योगः ति इति अस्ति. ने योगः अ तत्र सन्धिकार्यं भवति. एचु अयवायावः इति सूत्रेण नय इति भवति. नय योग अ योग ति नयति इति रूपं भवति नि धातोः. सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणकार्यं सम्भवति भ्वादिगणे. चुरादिगणे चुर् इति धातु स्वीकरोमि. चुर् योगः, तत्र णिच् भवति प्रथमं. चुर् योग णिच् योग शप् योग ति. णिच् तत्र इ इकार एव अवशिष्यते अनुबन्धलोपानन्तरं. चुर् योग इ इकारः इ तत्र इ प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. किमर्थं चेत् तत् शित् नास्ति, तिङ् नास्ति, आर्धधातुकं शेष इति सूत्रेण तत् आर्धधातुकप्रत्ययः अस्ति. चुर् योग इ पुगन्धलघूपदस्य च इति सूत्रेण चु तत्र उकारस्य गुणं सम्भवति. उकारस्य गुणम् ओ अस्ति. चुर् चोर् भवति. चोर् योग इ योग शप् योग तिप्. चोर् योग इ चोरी इति नूतनधातुः भवति. चोरी योग शप् तत्र अ तिष्ठति. चोरी योग अ तत्र अपि गुणकार्यं सम्भवति. किमर्थं चेत् तत्र इगन्तधातुः अस्ति, ईकारः अस्ति. चोरी भवति चोरे. चोरे योग अ योग तिप्. चोरे भवति सन्धिकार्यम् एचो अयवायावः इति सूत्रेण. चोरय भवति योग अ योग ति. चोरय योग ति तत्र किमपि नास्ति, केवलं वर्णमेलनं. अतः चोरयति इति रूपं भवति. तो भादिगणे चुरादिगणे गुणकार्यं सम्भवति.
उत्तमं. शपं निमित्तीकृत्य द्वयोः गणयोः गुणकार्यस्य प्रसक्तिः प्राप्तिः अपि अस्ति. स एव अत्र सारांशः. विकरणप्रत्ययेषु केवलम् एकः विकरणप्रत्ययः एव आर्धधातुकः, अन्ये सर्वे शित्वात् सार्वधातुकाः. तदर्थमेव अग्रिमे परिच्छेदे आर्धधातुकविकरणप्रत्ययः कः तस्मिन् प्रसङ्गे उक्तमस्ति. पठतु.
आर्धधातुकविकरणप्रत्ययाः के? केवलम् उ. स च कस्य गणस्य विकरणप्रत्ययः? तनादिगणस्य. सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्थधातुकप्रत्ययः अस्ति तत्र गुणः विहितः. अत्रापि गिति च इत्यनेन गित्वात् कित्वात् ङित्वात् च गुणकार्यं बाध्यते. अतः गित् कित् नित् च नास्ति चेत् बाधा नास्ति. आर्थधातुकप्रसङ्ग प्रत्ययस्य प्रसङ्गे सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्वात् न बाधा. तनादिगणे उ इति विकरणप्रत्ययः गित् कित् मित् च नास्ति, अतः अत्रापि गुणः अर्हः. यथा कृ योग उ, कर् योग उ, करु, करु योग ति, करोति इति. दशगणाः सन्ति. एक एव गणेषु उ प्रत्ययः अस्ति विकरणप्रत्ययः. अन्येषु अदादि जुहोत्यादि विहाय सार्वधातुकप्रत्ययः विकरणप्रत्ययः अस्ति. केवलं यदा पूर्वं दृष्टं भ्वादिगणे चुरादिगणे शप् भवति, अन्येषु गणेषु सार्वधातुकप्रत्ययः शकारः भवति, परन्तु ते अपि अस्ति. सार्वधातुक आर्धधातुकयोः सूत्रेण तत्र गुणकार्यं सम्भवितुम् अर्हति, परन्तु अपि इति कारणेन गुणः न भवति. अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रे सूत्रमस्ति. उ विकरणप्रत्ययः अस्ति तनादिगणे. उ विकरणप्रत्ययः आर्थधातुकप्रत्ययः अस्ति, अतः सार्वधातुक आर्थधातुकयोः इत्यनेन सूत्रेण तत्र गुणः भवति, गुणविहितः. सार्वधातुक आर्थधातुकयोः इति सूत्रेण गुणविहितः. अत्र नीति च इति कार्यं भवति वा इति द्रष्टव्यम्. नीति च सार्वधातुक आर्धधातुक नीति च वदति नीत्वात् गित्वात् कित्वात् नीत्वात् गुणकार्य गुणकार्यस्य बाधा भवति. अत्र उ कित् नास्ति, गित् नास्ति, ङित् नास्ति, अतः गुणकार्यं भवितुम् अर्हति. अनन्तरं सार्वधातुकम् अपि तत्र तत्सूत्रस्य कार्यमपि उ विकरणप्रत्ययकार्ये न भवति. किमर्थं चेत् उ आर्थधातुकप्रत्ययः अस्ति, सार्वधातुकं नास्ति. सार्वधातुकम् अपि सूत्रं केवलं सार्वधातुक सूत्रविषये कार्यं करोति. अपि अपि भवति चेत् तत् निद्वत् भवति. नित्वस्य नित्वस्य आरोपणं भवति तत्र. अतः ति च इति सूत्रेण तत्र गुणवृद्धिनिषेधः भवति. आर्थधातुकप्रत्ययविषये एतत् सूत्रं न कार्यं करोति. अतः तनादिगणस्य उक उ इति विकरणप्रत्ययः गित् कित् ङित् गित् कित् ङित् भवति चेत् गुणकार्यं न भवति. उ तु गित् गित् ङित् इव अपि न प्रवर्तते, तदपि नास्ति. अतः तत्र गुणः भवति एव. उदाहरणेन कृ इति तनादिगणीयधातुः अस्ति, तत्र विकरणप्रत्ययम् उ आर्थधातुकप्रत्ययम् अपि अस्ति, परन्तु तत्र तस्य कार्यम् अत्र एव न भवति, न अर्थम् एव नास्ति. तत्र कर् योग उ करु अण्ड् करु योग तिप् भवति. तिप् तत् पित् अस्ति, सार्वधातुकप्रत्ययः अस्ति. सार्वधातुक तिंशित् सार्वधातुकम् इति सूत्रेण, अतः तत्र गुणकार्यं भवति. करु योग ति उकारस्य गुण ओ अस्ति, अतः करोति इति रूपं भवति. भगिनि,
अत्र ऊ प्रत्ययः आर्धधातुकविकरणप्रत्ययः अस्ति इति कारणतः एतत् सर्वं चिन्तनं करणीयं. करोति इत्यस्मिन् प्रसङ्गे ऊ प्रत्ययः कित्तु गित्तु नित्तु नास्ति इति कारणतः ऊ प्रत्ययं निमित्तीकृत्य गुणकार्यं. किन्तु किमर्थम् उक्तमस्ति कित्तु गित्तु नित्तु मा भवेत् इति? उदाहरणार्थं कृतम् इति पदम् अथवा कृतवान् इति पदं स्वीकृत्य विवृणोतु.
तत्र तकार एव तिष्ठति अनुबन्धलोपानन्तरं कृ योग ता. ता इति आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्ययः तत् ककारम् एक्सज्ञकः अतः तत् कित् अस्ति चेत् ङिति इति सूत्रेण गुणकार्यं न भवति, अतः केवलं कृता इति एव रूपं भवति कित् अस्ति अतः
तदेव अर्धधातुकप्रत्ययः अपि च कित् गित् नित् नास्ति इति कारणतः अत्र गुणः अर्हः तदर्थमेव करोति इति रूपं साधितं, किन्तु क्तान्तरूपं क्तवत्वन्तरूपं क्तिन्नन्तरूपं परिशीलयामश्चेत् तत्र ते प्रत्ययः अर्धधातुकः एव, किन्तु तेषु प्रत्ययेषु ककारः इत् संज्ञकः इत्युक्ते ते प्रत्ययाः कित् प्रत्ययाः, अतः तेषु प्रत्ययेषु परेषु गुणकार्यम् असम्भवः, तदर्थमेव कृतं कृतवान् कृतिः इत्यादीनि पदानि परिशीलयामश्चेत् तत्र गुणकार्यं न दृश्यते एव. साधु भगिनी उत्तमरीत्या उक्तवती. इदानीं नरेश महोदय भवान् पठतु.
तर्हि भ्वादौ तनादौ चुरादौ च धात्वङ्गे गुणः अर्हः. दिवादिगणे स्वादिगणे तुदादिगणे रुधादिगणे क्रयादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत् किन्तु अपित्वात् बाधितम्. त्रीणि गुणः भवादि तनादि चुरादिगणे गुणः प्रसक्ति अस्ति. अन्ये दिवादिगण स्वादिगण तुदादिगण रुधादिगण क्रयादिगण तत्तु अपित्वम् अस्ति, अतः गुणकार्यं बाधितम् अस्ति.
उत्तमम्. एकं पदमस्ति विशेषतया, पदं किम् इत्युक्ते धात्वङ्गे गुणः इति. धात्वङ्गे गुणकार्यं केवलं त्रिषु गणेषु एव विकरणप्रत्ययं निमित्तीकृत्य भवति. धात्वङ्गे गुणकार्यं विकरणप्रत्ययं निमित्तीकृत्य त्रिषु गणेषु एव भवति. अन्येषु गणेषु दिवादिगणे स्वादिगणे तुदादिगणे रुधादिगणे क्रयादिगणे एतेषु पञ्चसु गणेषु धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्. किमर्थं चेत् विकरणप्रत्ययस्य शित्वकारणात् किन्तु अपित्वात् गुणकार्यं बाधितम्. अग्रे पठतु.
अधुना अदादिगणे जुहोत्यादिगणे च तयोः का गतिः? तयोः विकरणप्रत्ययः नास्ति. अत्र अङ्गम नाम किमति किमिति स्मर्यताम्. अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते. अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम् एकं चतुर्थं पञ्चं षष्ठं सप्तम् अष्टं नवं दशमम् इत्येषु गणेषु तिङ्प्रत्ययान् निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति धातुः. योग विकरणप्रत्ययः चुरादिगणे धातुः निच् विकरणप्रत्ययः, किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ्प्रत्ययानाम् अङ्गं कार्यक्षेत्रम् अस्ति धातु एव. अत्र दत्तम् अङ्गं किमस्ति? अङ्गं प्रत्यये पूर्वं यः अस्ति तत् अङ्गमस्ति. वयं द्रष्टव्यम् अदादिगणे जुहोत्यादिगणे कः भवति. अन्य प्रत्ययः पूर्वम् अङ्गं स्थितम् अस्ति तत् कार्यक्षेत्रम्. अत्र द्वितीय अदादिगण तृतीय जुहोत्यादिगण तत्र विकरणप्रत्यय अस्ति धातुः, किन्तु अदादिगणे जुहोत्यादिगणे च तिङ् प्रत्यय अत्र तिङ् प्रत्ययपूर्वम् अङ्गम् अस्ति अदादिगणे जुहात्यादिगणे
तदेव महोदय पश्यन्तु अदादिगणे जुहोत्यादिगणे च का गतिः तयोः का गतिः तत्र व्यावहारिकरूपेण तयोः गणयोः विकरणप्रत्ययः नास्ति अङ्गं नाम किम् इति स्मर्यताम् इति लिखितमस्ति वयं पूर्वं दृष्टवन्तः अङ्गसंज्ञासूत्रं यस्मात् प्रत्ययविधिस्तदाति प्रत्ययेऽङ्गम् इति अङ्गसंज्ञासूत्रमस्ति अनेन सूत्रेण अङ्गं नाम किम् इति उच्यते यस्मात् प्रत्ययविधिः तदाति प्रत्ययेऽङ्गम् अस्मिन् सूत्रे पञ्चपदानि सन्ति अङ्गसिद्धान्तम् आधारीकृत्य प्रत्ययात् प्राक् प्रत्ययात् पूर्वं यावान् भागः अस्ति यावदस्ति तत् सर्वम् अङ्गम् इति वदामः अङ्गम् इत्युक्ते कार्यक्षेत्रं कार्यस्य क्षेत्रं कार्यक्षेत्रं तत्र षष्टितत्पुरुषसमासः यत्र कार्यं भवति तदेव कार्यक्षेत्रं गणानां सङ्ख्या दत्ता अत्र प्रथमे गणे चतुर्थे गणे पञ्चमे गणे षष्ठे गणे सप्तमे गणे अष्टमे गणे नवमे गणे दशमे गणे एतेषु गणेषु अङ्गम् अथवा कार्यक्षेत्रं किं धातुः योगः विकरणप्रत्ययः धातुः प्लस् विकरणप्रत्ययः अङ्गं भवति एतेषु गणेषु चुरादिगणे आदौ णिच् आयाति णिच् सहितं रूपं स्वीकर्तव्यं धातुः योगः णिच् योगः विकरणप्रत्ययः एतत् सर्वं मिलित्वा तिङ् प्रत्ययस्य कृते अङ्गं भवति कथम् इत्युक्ते चोरयति इत्यस्मिन् तिङ् प्रत्ययस्य कृते चोरय इति अङ्गं भवति अदादिगणं त्यक्त्वा जुहोत्यादिगणं त्यक्त्वा अन्येषु गणेषु धातुः प्लस् विकरणप्रत्ययः मिलित्वा अङ्गं भवति उदाहरणार्थं भुवादिगणे भव इति अङ्गं भवति तिङ् प्रत्ययं निमित्तीकृत्य अदादिगणे जुहोत्यादिगणे तिङ् प्रत्ययस्य कृते कार्यक्षेत्रं धातुः एव इति अवगन्तुम् एकम् उदाहरणं वदामि अस् धातुः अस्ति अस् धातोः रूपम् अत्रैव पश्यन्तु पदम् अस्ति इति पदमस्ति खलु अस् इति धातुः अस्ति अस् धातुतः ति इति तिङ् प्रत्ययं योजयामः तिङ् प्रत्ययस्य कृते तत्र अस् धातुः एव अङ्गं भवति मध्ये विकरणप्रत्ययः नास्ति किन्तु जुहोत्यादिगणे दा धातुं स्वीकुर्मः चेत् तत्र ददा इति रूपम् अङ्गं भवति तिङ् प्रत्ययस्य कृते तस्मिन् गणे कानिचन अन्यानि कार्याणि सन्ति एतावत् धातुः एव अस्मिन् गणद्वये तिङ् प्रत्ययस्य कृते अङ्गं भवति अदादिगणे शपः लुक् भवति जुहोत्यादिगणे शपः श्लू भवति उदाहरणानि अपि दत्तानि पठतु महोदय अग्रे पठतु
भवति भवतः भवन्ति इत्येषु रूपेषु ति तः अन्ति इति तिङ् प्रत्ययाः इत्युक्तम् तेषां प्रत्ययानां मूलरूपाणि एवं तिप् तस् झि तिप् इत्यस्मिन् पकारस्य इत् संज्ञां कृत्वा लोपं कृत्वा ति इति शेषः तथा अन्येषामपि तिङ् प्रत्ययानाम् अनुबन्ध लोपानन्तरं सिद्धरूपाणि सन्ति तिने भवति भवतः भवन्ति अत्र ति तः अन्ति तत् तिङ् प्रत्ययाः सन्ति मूलरूपम् अस्ति तिप् तस् झि अत्र तिप् प्रथमम् अस्ति तस्य पकारस्य इत् संज्ञा भवति हलन्त्यम् इत्यनेन पकारस्य इत् संज्ञा भवति लोपः भवति तु ति अवशिष्यते अन्यमपि अनुबन्धलोपानन्तरं अन्य तस् झि तत्र पकारस्य इत्संज्ञा नास्ति तत्तु अपित् सन्ति केवलं तिप् पित् अस्ति
तदेव महोदय भवति भवतः भवन्ति इति भूधातोः प्रथमपुरुषरूपाणि सन्ति एकवचने द्विवचने बहुवचने तत्र तीतः अन्ति इति प्रत्ययाः सिद्धतिङ् प्रत्ययाः, किन्तु मूलप्रत्ययाः सन्ति. मूलप्रत्ययाः तिप् तस् झि, अनुबन्धलोपे सति सिद्धतिङ् प्रत्ययान् साधयामः. इत्युक्ते तिप् तस् झि इत्यस्मात् तीतः अन्ति इति रूपाणि आगतानि. तिप् इति एकः प्रत्ययः, पित् प्रत्ययः. तिप् इत्यस्मिन् पकारः इति संज्ञकः अस्ति इति कारणतः, पित्वम् अस्ति इति कारणतः प्रथमपुरुष एकवचनरूपे पित्वकारणात् गुणकार्यं भवितुमर्हति इति वयं द्रष्टुं शक्नुमः. कथम्? इन् गतौ इति एकः धातुः अस्ति, अनुबन्धलोपे सति तस्य रूपम् इ, लौकिकधातोः रूपम् इ अस्ति. सः धातुः अदादिगणे अस्ति, अदादिगणे अस्ति इति कारणतः मध्ये स्यप् नास्ति. इत्युक्ते धातुः एव तिङ्प्रत्ययस्य कृते कार्यक्षेत्रमस्ति, अङ्गमस्ति. तत्र इ इति इगन्तधातुः तिप्रत्ययः अन्ते अस्ति, इत्युक्ते प्रथमपुरुषे एकवचनरूपं साधयितुम् इच्छामः, तदर्थम् इकारस्य गुणकार्यं भूत्वा ए भवति. तदर्थमेव तत्र प्रथमपुरुष एकवचनरूपम् एति अस्ति, किन्तु तस् प्रत्ययं योजयामश्चेत् इतः इति रूपं सिद्ध्यति. तत्र तिप्रत्ययः एकः अपि च सिप् प्रत्ययः, मिप् प्रत्ययः, एते त्रयः प्रत्ययाः पितः सन्ति, किन्तु तत्र अपवादाः अपि सन्ति. मूलप्रत्ययेभ्यः सिद्धतिङ् प्रत्ययाः कथं साधनीयाः इति अत्र किञ्चित् परिशीलनीयः अंशः अस्ति. अत्र केवलं परस्मैपदीधातूनां कृते तिङ्प्रत्ययाः दत्ताः. तिङ् इति कथनेन न केवलं परस्मैपदिप्रत्ययाः, आत्मनेपदिप्रत्ययाः अपि तिङ् इति प्रत्याहारे सन्ति. तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तम् अष्टादशप्रत्ययानाम् उल्लेखः तिङ् इति प्रत्याहारे अस्ति. तिङ् इति कथनेन आत्मनेपदिप्रत्ययानाम् उल्लेखः अपि तस्मिन् अस्ति, किन्तु अस्मिन् करपत्रे तु केवलं परस्मैपदिप्रत्ययाः एव दत्ताः, मूलप्रत्ययाः दत्ताः. मूलप्रत्ययेभ्यः सिद्धतिङ् प्रत्ययान् इदानीं साधयामः. नरसिंह हेग्डे महोदय, भवान् साधयतु.
एवं च मूलपरस्मैपदीधातूनां तिङ्प्रत्ययः एकवचन, द्विवचन, बहुवचन, प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष, तिप् तस् झि, सिप् तस्थ, मिप् वस्मस्, एते सर्वे तिङ्गः. अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञा, एकवचने तिप् सिप् मिप् इत्येते प्रत्ययः पितः, अतः तत्र गुणः विहितः. द्विवचने बहुवचने च तिङ्प्रत्ययः सर्वत्र अपित् इति कारणतः सार्वधातुकम् अपित् किङ्ति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणनार्हः.
महोदय, तावत्पर्यन्तं प्रत्येकं प्रत्ययं स्वीकृत्य, तिप् इति प्रत्ययं स्वीकृत्य मूलतिङ् प्रत्ययात् प्रत्ययः कथं साधनीयः एकवारं विवृणोतु. नवप्रत्ययानां प्रसङ्गे वदतु.
तिप् तिप् अस्ति प्रथमपुरुषे एकवचन, तिप् अस्ति मूलप्रत्ययः, पकार अलन्त्यम् इत्यनेन निस्संज्ञा भवति, तस्य लोप इत्यनेन लोपः भवति, ति अवशिष्यते. ति सिद्ध तिङ् प्रत्ययः अस्ति. द्विवचने तस् अस्ति, तस् अत्र न विभक्तौ तु स्म इत्यनेन सकारस्य इत्संज्ञा न भवति, तस्यैव अवशिष्यते. तस् अन्ते त भवति, अहं न जानामेव कथं भवति.
यथा महोदयेन उक्तं, विभक्तिश्च इति सूत्रेण एते तिङ्प्रत्ययाः अपि विभक्तिसंज्ञकाः, न केवलं सुप्रत्ययाः, तिङ्प्रत्ययाः अपि विभक्तिश्च सूत्रेण विभक्तिसंज्ञकाः भवन्ति इत्येकः विषयः. तदर्थमेव न विभक्तौ तु स्माः इति सूत्रेण अत्र तस्प्रत्यये स्थितस्य दन्त्यसकारस्य इति संज्ञा न भवति. सकारः यथावत् तिष्ठति, तत्र तस् इति रूपं तथा तिष्ठति. अग्रे दत्तमस्ति ऋत्वविसर्गौ भवतः, इत्युक्ते ऋत्वकार्यं भवति अपि च विसर्गः आयाति. ससजुषोरुः इति सूत्रेण तत्र रु इति आयाति. इ इति धातुं स्वीकुर्मः चेत् इ धातुः अदादिगणे अस्ति, तस् इति प्रत्ययं योजयामः, तत्र इतस् इति रूपं सिद्ध्यति. तस् प्रत्ययः तिङ्प्रत्ययः, तिङ्प्रत्ययः अस्ति इति कारणतः सुप्तिङन्तं पदम् इति सूत्रेण इतस् इत्यस्य पदसंज्ञा भवति. यदा पदसंज्ञा भवति तदा ससजुषोरुः इति सूत्रे किं लिखितमस्ति इत्युक्ते तस्य शब्दस्य पदसंज्ञा भवेत् चेदेव एतत् सर्वं कार्यं भवति. इत्युक्ते अत्र धातोः परं तस् इति प्रत्ययः तिङ्प्रत्ययः अस्ति इति कारणतः सुप्तिङ्गन्तं पदम् इति सूत्रेण तस्य शब्दस्वरूपस्य पदसंज्ञा अस्ति इति कारणतः तत्र ससजुषोरुः इति सूत्रेण रुत्वम् आयाति. अनुनासिक उकारः अस्ति रु इत्यस्मिन्, तस्य अनुनासिक उकारस्य इति संज्ञा उपदेशजनुनासिक इत्यनेन भवति. तत्र रेपः तिष्ठति, तत्र रूपम् इतर् भवति. ई धातुं स्वीकुर्मः चेत् इतर् तत्र रेपः अवसानावस्थायाम् अस्ति इति कारणतः खरवसानयोः विसर्जनीयः इति सूत्रमस्ति. इत्युक्ते खरीपरे अवसाने परे च रेफस्य स्थाने विसर्गादेशः भवति इति सूत्रं वदति. इतर् तत्र रेपः अवसानावस्थायाम् अस्ति. तत्र अवसान अवस्था का इति अवगन्तुं विरामोवसानम् इति एकं सूत्रमस्ति. अत्र अवसानावस्थायां रेपः अस्ति इति कारणतः खरवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आयाति इति कृत्वा तस् इति मूलप्रत्ययात् तः इति रूपम् आगतं. वदतु अग्रे.
अग्रे जी अस्ति बहुवचने, प्रथमपुरुषबहुवचने. जी इत्यस्मात् चुटु इत्यनेन जकारस्य संज्ञा भवति, ई अवशिष्यते.
महोदय, अत्रापि किञ्चित् वैशिष्ट्यमस्ति. जी इत्यत्र किमस्ति, झकारः अपि च इकारः अस्ति. अत्र किञ्चित् वैशिष्ट्यमस्ति, प्रयोजनाभावात् प्रयोजनस्य अभावात् झकारस्य इति संज्ञा न भवति. तत्र जी तिष्ठति. साधारणतया रूपाणि पश्यामश्चेत् पठति, पठतः, पठन्ति इति रूपाणि स्वीकुर्मः चेत् पठति सर्वे जानीमः एव कथं साधितमिति. पठ इति अङ्गमस्ति, तः इति सिद्धतिङ् प्रत्ययं योजयामः, तेन पठतः इति रूपं सिद्ध्यति. किन्तु बहुवचनरूपं पठन्ती अस्ति, मूलप्रत्ययः झी अस्ति, तत्र मूलप्रत्ययस्य झकारस्य इति संज्ञा न भवति. प्रयोजनाभावात् झकारस्य इति संज्ञा न भवति इति ज्ञातव्यः अंशः. प्रत्ययस्य स्थाने अन्ये आदेशाः भवन्ति, इत्युक्ते प्रत्ययस्य उपरि अन्य आदेशाः भवन्ति. कथम् इत्युक्ते झोन्तः इति एकं सूत्रमस्ति, तेन सूत्रेण झकारस्य स्थाने, न तु सम्पूर्ण झि, केवलं झकारस्य स्थाने एव अन्त् इति आदेशः भवति. तदा अन्तियोगः ई अन्ति इति सिद्धतिङ् प्रत्ययः आयाति. पठ इति अङ्गमस्ति, अन्ति इति सिद्धतिङ् प्रत्ययः अस्ति, किन्तु तत्र अतोगुणे इति कार्यं कृत्वा पठन्ति इति रूपं सिद्ध्यति. अत्र झकारस्य इति संज्ञा न भवति प्रयोजनाभावात्.
भगिनि, प्रयोजनस्य अभाव इत्युक्ते किं भगिनि?
यूसेज् वा भगिनि? यूसेज्
अड्वाण्टेज्?
अड्वाण्टेज् नास्ति. शुभदा भगिनि वदतु.
प्रोविजन् फार् इति संज्ञा नास्ति, अतः जि इत्यस्मिन् कोऽपि प्रोविजन् नास्ति.
चवर्गीयव्यञ्जनमस्ति छ छ झ झ, चुटु इत्यनेन भवितुम् अर्हति, किन्तु प्रयोजनाभावात् झकारस्य इति संज्ञा न भवति. प्रोविजन् नास्ति इत्युक्ते किं, पुनः वदतु.
इत्युक्ते झि इति तिङ् प्रत्ययस्य कृते कोऽपि विशिष्टं किमपि विशिष्टं सूत्रमस्ति. यदा विशिष्टं सूत्रमस्ति तदा सामान्यं नियमः सामान्यः नियमः न सामान्यनियमस्य प्रसङ्गः नास्ति तत्र. अतः झि इत्यस्य कृते कोऽपि अनुबन्धलोपस्य प्रयोजनम् अथवा प्रोविजन् नास्ति इति अहं चिन्तयामि.
प्रोविजन् इत्युक्ते प्रसङ्गं न वा, प्रसङ्गम् एव नास्ति इति?
No, it's clear to me now. It's clear to me, Shubhada Bhagini's explanation is clear. Like, G is, and Jhontaha is the Sutra Masti. Tad Sutram Karyam Karoti, Ataha Tasya Lopahana Bhavati. Chutu iti Sutrena. Tadeva, na Shubhada Bhagini?
Samore. Yada Vishishtam Sutra Masti, tada शेषाः सामान्यसूत्राः सूत्राणि क्षम्यतां शेषानि सामान्यसूत्राणि अत्र कार्यं न करोति, केवलं तत्र तं विशिष्टं सूत्रमेव कार्यं करोति. अतः झि इत्यस्य कृते झोन्तः इति अस्ति, अतः झोन्तः एव कार्यं करोति,
कार्यं न करोति.
हा, अन्यानि सूत्राणि कार्यं न कुर्वन्ति इति अहं चिन्तयामि.
साधु भगिनी, धन्यवादाः. महोदय, भवान् साधयतु इतोपि.
मध्यमपुरुषे एकवचन सिप् अस्ति, पकारस्य अनन्त्यमित्यनेन संज्ञा भवति, तस्य लोप इत्यनेन लोपः भवति, सि एव अवशिष्यते. द्विवचने सस् अस्ति, अत्रापि न विभक्तौ तु स्म इत्यनेन सकारस्य संज्ञा न भवति, तस् अन्ते सः भवति यथा भवती इदानीम् एक्स्प्लेन् कृतवती. बहुवचने स एव अवशिष्यते. उत्तमपुरुषे मिप् अस्ति, एकवचने पकारस्य अलन्त्यम् इत्यनेन संज्ञा, तस्य लोप इत्यनेन लोपः, मि अवशिष्यते. वस् अस्ति, न विभक्तौ तु स्म इत्यनेन सकारस्य न संज्ञा, वस् वः भवति आन् द सेम् लैन्स्. मस् अपि महा भवति, सकारस्य संज्ञा न भवति, महा भवति.
उत्तमं, तदेव. सिप्पु सिप्पु मिप्पु एतान् विहाय अन्यप्रत्ययाः अपित् प्रत्ययाः, तेषु पित्वं नास्ति इति कारणतः नित्वत् भूत्वा तत्र गुणनिषेधः भवति. उदाहरणानि परिशीलयामश्चेत् इतोपि स्पष्टतया अवगन्तुं शक्नुमः. इत्युक्ते द्विवचन उदाहरणानि, बहुवचन उदाहरणानि परिशीलयामश्चेत् अवगन्तुं शक्नुमः. अग्रे उदाहरणानि दत्तानि एव, एकवारं परिशीलयाम. साधु महोदय, धन्यवादाः. निर्मला भगिनी भवती करोतु.
एते सर्वे तिङ् अतः शितः सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः. एकवचने तिप् सिप् मिप् इत्येते प्रत्ययाः पित् अतः तत्र गुणः विहितः. द्विवचने बहुवचने च तिङ् प्रत्ययः सर्वत्र अपित् इति कारणतः सार्वधातुकम् अपित् नीति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः नार्हः. ओके, सो तिक् प्रत्ययः तिप् प्रथमपुरुष एकवचने, प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने, उत्तमपुरुष एकवचने तिप् मिप् सिप् मिप् इति अस्ति. तिङ्क्षित् सार्वधातुकम् एव. अत्र एकवचने तिप् सिप् मिप् प्रत्यये प्रत्ययाः सर्वे पित् अस्ति, अतः गुणः गुणः भवत् अतः गुणः विहितः भवति. पि सि मि एव अवशिष्यते. किन्तु द्विवचने बहुवचने च प्रत्ययः अपित् अस्ति इति कारणात् सर्वधातुकम् अपित् इति सूत्रेण निति च इति सूत्रेण अपि गुणबाधकसूत्रम् अस्ति, अतः गुणः न भवति, अङ्गे गुणः न भवति.
तिप् सिप् मिप् पितः सन्ति, अन्यप्रत्ययाः अपित् प्रत्ययाः, अपित्वात् सार्वधातुकम् अपित् इत्यनेन णित्वत् आचरन्ति ते प्रत्ययाः. णित्वत् भूत्वा क्निति च सूत्रेण गुणनिषेधः भवति इति. अपित् प्रत्ययेषु क्निति च सूत्रेण गुणकार्यं बाधितम् इति अवगन्तुमेव अग्रिमे परिच्छेदे एकम् उदाहरणं दत्तमस्ति. अत्र केवलं परस्मैपदी प्रत्ययाः एव दत्ताः, आत्मनेपदीप्रत्ययाः अपि सन्ति. ता आतां झ थास् आथां ध्वम् इद्वहि महिङ् इति प्रत्ययाः सन्ति. तत्र महिङ् इति कथनेन तत्र अन्ते ञकारः अस्ति, सः ञकारः इत् संज्ञकः अस्ति. इड्वहि महिङ् इट् इति कथनेन टकारः इत् संज्ञकः अस्ति. आत्मनेपदीप्रत्ययानां प्रसङ्गे अहं वदन्ती अस्मि, लः परस्मैपदम् इति सूत्रेण परस्मैपदीसंज्ञा दीयते. द्विवचनरूप उदाहरणं दत्तमस्ति अग्रिमे परिच्छेदे, पठतु.
यथा अदादिगणे ई धातुः गतौ ई योगः तिप् सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः एति इति रूपं सिद्धम्. किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित् अतः गुणनिषेधः ई योगः तः इतः इति रूपं सिद्ध्यति. यथा उदाहरणम् अदादिगण गणस्य ई धातुः स्वीकरोमि चेत् ई योगः तिप् 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 भूत्वा भवति. अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण इगन्त अङ्गम् इकः भवति. अतः इगन्तस्य गुणकार्यं भूत्वा इ ए भवति. अतः ए योगः ति पकारस्य लोपानन्तरम् ए योगः ति एव अवशिष्यते. अतः एति इति रूपं सिद्ध्यति. किन्तु द्विवचने तस् इति रूपम् तिङ् प्रत्ययस्य रूपं तस् इति अस्ति. अतः अपित् अस्ति इति कारणात् गुणनिषेधः भवति. अतः ई योगः तः एव भवति. यथा पूर्वम् उक्तं ससजुषोरुः इति सूत्रात् थर् इति भूत्वा रेफस्य अन्यसूत्रस्य प्रभावात् रेफः विसर्गरूपं सिद्ध्यति. अतः इतः इति भवति.
उत्तमम्. अयं धातुः गतौ इत्यस्मिन् अर्थे अस्ति. इण् गतौ इण् तत्र मूर्धन्यणकारः अस्ति. इण् गतौ इति एकः धातुः, तस्य रूपमेव एति. किन्तु अन्यधातुः अदादिगणे अस्ति. अधि उपसर्गपूर्वकः धातुः इङ् अस्ति. इत्युक्ते अधि उपसर्गपूर्वकः इन् धातौ अन्ते ण्यकारः अस्ति. सः धातुः अधि उपसर्गपूर्वकः भवति. अनुबन्धलोपे सति तस्य लौकिकधातोः रूपमपि ई एव. किन्तु तस्य रूपम् अधीते अधीते अधीयाते अधीयते इति रूपाणि सिद्ध्यन्ति. कक्षायाः अनन्तरं चिन्तयन्तु तत्र अधीते अधीयाते अधीयते इति रूपाणि कथं सिद्ध्यन्ति इति एकवारं चिन्तनीयं. सः धातुः भिन्नः, किन्तु अत्र गतौ इत्यस्मिन् अर्थे ई धातोः रूपं दत्तमस्ति. तिप्रत्ययस्य पित्वकारणात् सार्वधातुकार्धधातुकयोः सूत्रेण इगन्तधातौ, ई धातुः इगन्तधातुः खलु, तदर्थमेव इगन्तधातौ ईकारस्य गुणः भूत्वा ये भवति. अदादिगणीयधातुः अस्ति, केवलं धातुः एव अङ्गमस्ति, तदर्थमेव एति रूपं सिद्ध्यति. द्विवचनरूपम् इतः अस्ति. तस्मिन् प्रसङ्गे अहम् उक्तवती ई योगः तस् अस्ति चेत् तत्र तस् प्रत्ययः तिङ् प्रत्ययः इति कृत्वा सुप्तिङन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा भवति. पदसंज्ञा भवति चेत् ससजुषोरुः इति सूत्रेण पदान्ते विद्यमानस्य, पुनः वदामि, पदान्ते विद्यमानस्य सकारस्य रुत्वं भवति ससजुषोरुः इति सूत्रेण. तदनन्तरं खरवसानयोर्विसर्जनीयः इति सूत्रेण पदान्ते विद्यमानस्य रेफस्य विसर्गादेशः अत्र अवसाने परे भवति. खरिपरे अपि विसर्गादेशः भवति, किन्तु अत्र अवसाने परे विसर्गादेशः भवति रेफस्य स्थाने इति अवगन्तव्यं. तदर्थमेव इतः इति रूपं निष्पन्नं भवति. तः इति सिद्धतिङ् प्रत्ययः अस्ति. तस् इत्यस्मात् साधितं रूपं तत् अपित्वात् गुणनिषेधः अत्र दृश्यते. अग्रिमे परिच्छेदे अन्यत् उदाहरणमपि दत्तमस्ति. शुभदा भगिनी पठतु.
तथैव अदादिगणे रुद् धातुः, रुद् योगः तिप् पुगन्तलघुपधस्य च इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः रोदिति इति सिद्धम्. किन्तु द्विवचने तस् इति तिङ्प्रत्ययः अपित्, अतः गुणनिषेधः. रुद् योगः तः रुदितः इति रूपम्. अत्र अन्यत् एकं धातुः स्वीकुर्मः चेत् रुद् इति धातुः अस्ति. रुद् इति धातुः उदुपध धातुः, यतोहि तस्य उपधायां ह्रस्व उकारः अस्ति. अतः एषः धातुः उदुपध धातुः इति उच्यते. तस्य रुद् योगः तिप् इति कुर्मः चेत् पुगन्तलघुपधस्य च इति सूत्रम् अत्र कार्यं करोति. यतोहि तत्र उपधायां ह्रस्व उकारः अस्ति, अतः लघु उपधायाः अत्र प्रसङ्गः भवति. पुगन्तलघुपधस्य च इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः, तस्य पुगन्तलघुपधस्य च इत्यनेन इति सूत्रेण उपधायां यः लघु उकारः अस्ति तस्य गुणः भवति यदा यदा सार्वधातुक अर्ध सार्वधातुक अर्धधातुकयोः इति इत्यस्य अनुवृत्तिः अस्ति. अतः तिप् इत्यस्मिन् सार्वधातुक अर्धधातुक क्षम्यतां सार्वधातुकप्रत्ययः अस्ति तिप् इति. अतः पुगन्तलघुपधस्य च इत्यनेन रु इत्यस्य गुणः भूत्वा रो इति भवति, अतः रोदिति इति रूपं सिध्यति. किन्तु द्विवचने द्विवचने अपि तिङ् इति तिङ् प्रत्ययः एव अस्ति तस् इति, परन्तु तत्र अपित् नास्ति, तत्र पकारः नास्ति, अतः अपित् अस्ति. अपित् अस्ति चेत् तस्य सार्वधातुकमपि इत्यनेन णित्वत् अस्ति, अतः णिति च इति सूत्रेण तत्र गुणः न भवति. अपि च तत्र तस् इति ससजुषोरुः इत्यनेन तः इति भवति, ससजुषोरुः अपि च खर्वसानयोर्विसर्जनीयः इति सूत्रेण द्वयोः सूत्रयोः योगेन तः इति तस्य अन्तिमरूपं भवति. अतः रुद् योगः तः अत्र गुणः न भूत्वा तत्र अन्येन एकसूत्रेण तत्र इकारः भवति रुदितः इति भवति, परन्तु रु इत्यस्य रो न भवति, तत्र रु एव तिष्ठति, अत्र रुदितः इति तस्य अन्तिमरूपं भवति.
अदादिगणीयरुद्धातोः प्रसङ्गे अत्र उक्तमस्ति रुद्धातोः रूपाणि परिशीलयामश्चेत् बहवः विषयाः ज्ञातव्याः सन्ति. प्रत्ययः अस्ति इति कारणतः गुणः भूत्वा रोद् भवति. तत्र मध्ये इडागमः दृश्यते, इडागमचिन्तनं अर्धधातुकप्रक्रियायाम् एव, किन्तु अत्र रुद्धातोः प्रसङ्गे अपि च अन्ये चत्वारः धातवः सन्ति रुद्धु स्वप्पु श्वाश्यु अन्नु जक्षु. एतेषु पञ्चसु धातुषु वलादिसार्वधातुकप्रत्यये परे इडागमः भवति. कक्षायाः अनन्तरं रुद्धातोः सर्वाणि रूपाणि पश्यन्तु, तत्र भिन्नभिन्नसूत्राणि कार्यं कुर्वन्ति. रुद्धातोः प्रथमपुरुषे एकवचनरूपं रोदिति, मध्यमपुरुषे एकवचनरूपं रोदिषि, उत्तमपुरुष रोदिमि, रोदिति रोदिषि रोदिमि. तिप्पु सिप्पु मिप्पु पित्वकारणात् एतेषु त्रिषु रूपेषु गुणकार्यं भूत्वा रोदिति रोदिमि रोदिषि इत्यादीनि रूपाणि भवन्ति. मध्ये इडागमः भवति. कुत्र भवति इडागमः इत्युक्ते वलादिसार्वधातुकप्रत्ययेषु परेषु एव इडागमः भवति. इत्युक्ते सर्वाणि रूपाणि एकवारं परिशीलयामश्चेत् अष्टसु रूपेषु इडागमः दृश्यते. कथं? रोदिति रुदितः रुदन्ति, रोदिषि रुदितः रुदिथ, रोदिमि रुदिवः रुदिमः. तत्र नवरूपाणि परिशीलयामश्चेत् एकमेव रूपम् अस्ति तस्मिन् इडागमः न दृश्यते. तत्र रुदन्ति इति रूपम् इडागमः नास्ति, अन्येषु रूपेषु इडागमः भवति. केन सूत्रेण भवति इत्युक्ते रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भवति. किमर्थम् इत्युक्ते वल् इति एकः प्रत्याहारः अस्ति खलु, वल् प्रत्याहारस्थवर्णः एतेषु प्रत्ययेषु आदिमवर्णः भवेत्. तिप् इत्यस्मिन् तकारः वल् प्रत्याहारस्थवर्णः, तस् इत्यस्मिन् तकारः वलादिवर्णः, किन्तु झि इत्यस्मिन् स्थाने अन्त आदेशः भवति खलु, सः अकारः वलादिवर्णः नास्ति इति कृत्वा रुदन्ति इत्यस्मिन् रूपे इडागमः न दृश्यते इति परिशीलनीयः एकः अंशः. तिप् सिप् मिप् प्रत्ययेषु परेषु गुणकार्यं भूत्वा रोदिति रोदिषि रोदिमि इति रूपं भवति.
भगिनि, भवती रोदिनी उक्तवती, रोदिनी अस्ति वा रोदिमि?
रोदिमि रोदिमि
रोदिमि अस्तु
रोदिमि. अन्येषु स्थलेषु इत्युक्ते प्रथमपुरुषद्विवचने बहुवचने, मध्यमपुरुषद्विवचने बहुवचने, उत्तमपुरुषद्विवचने बहुवचने गुणकार्यं न दृश्यते. तदर्थमेव रुदितः रुदन्ति, रुदितः रुदिथ, रुदिवः रुदिमः इति रूपाणि भवन्ति. रुदिवः इति स्वीकुर्मः चेत् रुद् योगः ई योगः वः, रुद् योगः ई योगः मः इति बहुवचनरूपं. तत्र मध्ये इडागमः भवति. इडागमचिन्तनं साधारणतया आर्धधातुकप्रक्रियायाम् एव भवति, किन्तु अपवादत्वेन अत्र वलादिसार्वधातुकप्रत्यये परे इडागमः भवति इति अवगन्तव्यम्. रुदन्ति इत्यस्मिन् इडागमः न दृश्यते. पञ्चसु धातुषु अनेन सूत्रेण रुदादिभ्यः सार्वधातुके सूत्रेण इडागमः दृश्यते. तदर्थमेव स्वप् स्वपिति, स्वश् स्वशिति, अनिति जक्षिति, तत्र इडागमः दृश्यते इति ज्ञातव्यः अंशः अस्ति रुद् धातोः प्रसङ्गे. एतावत्पर्यन्तम् अदादिगणीयधातुषु अपित् प्रत्ययेषु परेषु गुणनिषेधः भवति इति अवगन्तुं रुदितः इति रूपं दत्तमस्ति. जुहोत्यादिगणे किं भवति, अत्र जुहोत्यादिगणीय उदाहरणमपि दत्तमस्ति. भगिनी पठतु.
जुहोत्यादिगणे अपि तथा भूधातोः द्वित्वं कृत्वा जुहु इति अङ्गम् अङ्गं जुहु योगः ति गुणकार्यं भूत्वा जुहोति इति रूपं निष्पन्नम्. परन्तु द्विवचने जुहु योगः तस् जुहुतः अपित्वात् गुणाभावः. तादृशम् एव जुहोत्यादिगणे अपि तथैव भवति, किन्तु द्वित्वं भवति. जुहु इति धातुः अस्ति, तत्र द्वित्वं भूत्वा जुहु इति रूपं सिध्यति. जुहु योगः ति भूत्वा तत्र तिप् इत्यस्य पित्वात् गुणकार्यं भवति. जुहु इत्यस्य जुहो भवति, तत्र जुहोति इति अन्तिमरूपं निष्पन्नं भवति. परन्तु द्विवचने यदा वयं दृष्टवन्तः जुहु योगः तस् तत्र अपित्वात् किङिति च इत्यस्य इत्यनेन गुणनिषेधः भवति. तत्र जुहुतः तस् इत्यस्य खरवसानयो क्षम्यतां ससजुषोरुः तदनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन सकारस्य विसर्गः भवति. सो जुहु योगः तः इति सिध्यति. तदनन्तरं तत्र गुणः न भवति, जुहुतः इति संयोगः इत्युक्ते मेलनम् एव भवति, अपित्वात् गुणस्य अभावः भवति.
उत्तमं, तदेव. अयं धातुः जुहोत्यादिगणे अस्ति इति कारणतः द्वित्वकार्यम् अपि च बहूनि अन्यानि कार्याणि अपि सन्ति. तिप्रत्ययः हलादि पित् प्रत्ययः इति वदामः. तिप् इति प्रत्ययः हलादिपित् प्रत्ययः, तस् प्रत्ययः हलादि अपित् प्रत्ययः. आदिमवर्णः हल् वर्णः अस्ति इति कारणतः तिप् प्रत्ययः हलादिप्रत्ययः, तस् प्रत्ययः हलादि अपित् प्रत्ययः इति वक्तव्यमस्ति. अत्र हू धातोः प्रसङ्गे जुहु इति अङ्गं सिध्यति. द्वित्वं भूत्वा जुहु इति अङ्गमस्ति. अङ्गं स्वीकृत्य सिद्धतिङ् प्रत्ययं योजयामः. तत्र एकवचनरूपं जुहोति, द्विवचनरूपं जुहुतः. जुहुतः इत्यस्मिन् अपित्वात् गुणाभावः. अग्रे एकं वाक्यं परिशील्य समापयामः. इदानीं सुजाता भगिनी, भवती अग्रिमं वाक्यं पठतु.
सारांशः कः इति चेत्, प्रथमगणे द्वितीयगणे तृतीयगणे अष्टमगणे दशमगणे इत्येषु गणेषु धात्वाङ्गे गुणः सम्भवः. चतुर्थगणे पञ्चमगणे षष्ठगणे सप्तमगणे नवमगणे इत्येषु गणेषु धात्वाङ्गे गुणः न अर्हः. सारांशः अस्ति गणेषु धात्वाङ्गे गुणः सम्भवति प्रथमगणे द्वितीयगणे तृतीयगणे इत्येषां गणेषु. अन्य दशगणाः सन्ति. अन्यगणेषु धात्वाङ्गे गुणः न अर्हः, न सम्भवति, गुणः न सम्भवति.
उत्तमः. प्रथमः गणः इत्युक्ते भुवादिगणे, भुवादिगणे शपं निमित्तीकृत्य धात्वङ्गे गुणः. द्वितीयगणः अपि अत्र अस्ति, इत्युक्ते अदादिगणे विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं नास्ति, किन्तु तिङ्प्रत्ययं निमित्तीकृत्य अदादिगणे धात्वङ्गे गुणः. तथा एव जुहोत्यादिगणे अपि शप्रत्ययस्य अभावः अस्ति, शप्रत्ययः नास्ति इति कृत्वा धातुः एव अङ्गं भवति. जुहोत्यादिगणे अपि तिङ्प्रत्ययं निमित्तीकृत्य धात्वङ्गे गुणः. अष्टमः गणः तनादिगणः, तनादिगणे ऊप्रत्ययं निमित्तीकृत्य धात्वङ्गे गुणः. दशमे गणे अपि शप्रत्ययं निमित्तीकृत्य धात्वङ्गे गुणः सम्भवति इति अस्माभिः उदाहरणानि स्वीकृत्य परिशीलितमासीत्. किन्तु अत्र चतुर्थे गणे, चतुर्थे गणे इत्युक्ते दिवादिगणे, गुणः न अर्हः. पञ्चमे गणे स्वादिगणे अपि विष्णुप्रत्ययः अस्ति इति कारणतः धात्वङ्गगुणः न अर्हः. षष्ठः गणः, षष्टम इति न वक्तव्यं, न भूत्वा इति न वक्तव्यम्, अभूत्वा इति वक्तव्यमस्ति. यत्र कुत्रापि वाक्ये न इति पदमस्ति चेत् तत् पदं क्रियया सह सर्वदा अन्वेति, अभूत्वा इति एव वक्तव्यमस्ति. सप्तमः गणः रुधादिगणे अपि धात्वङ्गे गुणः असम्भवः इति चर्चितमेव. विशिष्टानि कार्याणि सन्ति इति कारणतः श्नम् विकरणप्रत्ययः विशिष्टः, तदर्थं गुणस्य अभावः. नवमे गणे क्रियादिगणे अपि श्ना अस्ति इति कारणतः धात्वङ्गे गुणः न अर्हः. सारांशरूपेण तदेव अत्र लिखितमस्ति. एकवारं पठतु.
धात्वङ्गे गुणः सम्भवः, भवादिगणः, अरादिगणः, जुहोत्यादिगणः, तनादिगणः, चुरादिगणः, एतेषु गणेषु गुण सम्भवति. धात्वङ्गे गुणस्य अभावः अस्ति, प्राप्तिः अस्ति. धात्वङ्गे असम्भवः. दिवादिगणः, स्वादिगणः, तुदादिगणः, रुदादिगणः, त्रयादिगणः, एतेषु गणेषु धात्वङ्गे गुणः असम्भवः भवति.
तदेव एतावत्पर्यन्तं वयं किञ्चित् चिन्तनं कृतवन्तः. अग्रे अभ्यासः अस्ति. धातवः दत्ताः, तान् धातून् स्वीकृत्य रूपाणि साधयन्तु. प्रथमपुरुषे एकवचनरूपं साधनीयं. तेषां प्रसङ्गे अग्रिमे सप्ताहे चिन्तनं करिष्यामः. तत्र रूपं कथं सिद्ध्यति, गुणकार्यं भवति वा न वा, एतत् सर्वं परिशीलयन्तु, रूपं साधयन्तु. अग्रिमे सप्ताहे तस्मिन् विषये चिन्तनं करिष्यामः. सर्वेषां धन्यवादः.